ओम हरि ओम तत्सत श्री गुरुभ्यो नमः हरि ओम गणेश भुजंग स्तोत्रम ऋण क्षुद्र घंटानि नादाभिरामम् चलत्ताण्डवो दण्डवत् पद्मतालम् लसत्तुन्दिलाङ्गोपर्व्यालहारम् गणाधीशमीशानसूनुं तमीडे ध्वनिध्वंसवीणालयोल्लासिवक्त्रम् स्फुरच्छुण्डदण्डोलसद्बीजपूरम् गलद्दर्पसौगन्ध्यलोलालिमालम् गणाधीशमीशानसूनुं तमीडे प्रकाशज्जपारक्तरत्नप्रसून प्रवालप्रभातारुणज्योतिरेकम् प्रलम्बोदरौ वक्रतुण्डैकदन्तौ गणाधीशमीशानसूनुं तमीडे विचित्रस्फुरद्रत्नमालाकिरीटम् किरीटोलसच्चन्द्ररेखाविभूषम् विभूषैकभूषम् भवध्वंसहेतुम् गणाधीशमीशानसूनुं तमीडे उदञ्चद्भुजावल्लरी दृश्यमूलो चलद्ब्रूलता विभ्रमभ्राजदक्षम् मरुत्सुन्दरी चामरै सेव्यमानम् गणाधीशमीशानसूनुं तमीडे स्फुरन्निष्ठुरालोलपिङ्गाक्षितारम् कृपाकोमलोदारलीलावतारम् कलाबिन्दुगम् गीयते योगिवर्यैः गणाधीशमीशानसूनुं तमीडे यमेकाक्षरम् निर्मलम् निर्विकल्पम् गुणातीतमानन्दमाकारशून्यम् परम् पारमोङ्कारमाम्नाय गर्भम् वदन्ति प्रगल्भम् पुराणम् तमीडे चिदानन्दसान्द्राय शान्ताय तुभ्यम् नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् नमो नल्तलीलाय कैवल्यभासे नमो विश्वबीजप्रसीदेशसूनो नमो विश्वबीजप्रसीदेशसूनो इमं सुस्तवं प्रातरुत्थाय भक्त्या पटेद्यस्तु मर्त्यो लभेत् सर्वकामान् गणेशप्रसादेन सिद्ध्यन्ति वाचो गणेशे विभौ दुर्लभम् किम् प्रसन्ने गणाधीशमीशानसूनुं तमीडे